अस्तु तर्हि अस्माकं सर्वेभ्यो नमः। हा तत्र अस्तु नरेश् महोदय, तत्र प्रार्थनारूपेण आरम्भे वदति वा महोदय? नरेश् महोदय,
आं महोदय, अहं वदामि। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः।
धन्यवादः महोदय। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्माकं वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति पञ्चमी षष्ठी सप्तमी विभक्ति नाम अभ्यासः हलन्तपदानाम् इति। तस्मिन् विषये गतवर्गे तत्र वयं एकां कथां पठितवन्तः, अद्यापि तामेव कथां पुनरेकवारं शीघ्रं पठित्वा तत्र रूपाणाम् अभ्यासम् अपि अद्य कुर्मः। अस्तु तर्हि तस्य पूर्वं तत्र करपत्रे, तत्र यत् स्वरूपमहोदयस्य करपत्रम् अस्ति हलन्तपदानां करपत्रं, तस्मिन् तत्र रूपाणि दत्तानि सन्ति खलु? तत्र वयम् एतत् कुर्मः, तत्र यत् आत्मन् पदस्य भवान् शब्दस्य सर्वम् अस्ति। तत्र शुभदा भगिनी, तत्र भवान् शब्दस्य रूपाणि एकवारं पठति वा भगिनि?
आं महोदय। भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवन्तः, भवता, भवद्भ्यां, भवद्भिः, भवते, भवद्भ्यां, भवद्भ्यः, भवतः, भवद्भ्यां, भवद्भ्यः, भवतः, भवतोः, भवतां, भवति, भवतोः, भवत्सु।
हा समीचीनं भगिनि, धन्यवादः। हा हा, एतादृश अपि इदानीं तत्र सूर्यकुमारी भगिनी, तत्र आत्मन् पदस्य रूपाणि एकवारं पठति वा भगिनि? सूर्यकुमारी भगिनी,
क्षम्यतां महोदय, करपत्रं
तत्र ईमेल् मध्ये एव आसीत् भगिनि, तत्र अटाच्मेण्ट् इति न, किन्तु तत्र होम्वर्क्, तदनन्तरं तत्र आत्मन् पदस्य यदि पश्यतु, नो चेत् तत्र अग्रे
अहं पठामि।
अस्तु,
आत्मन् पदस्य आत्मन्
तत्र द्वितीयस्तम्भे द्वितीयपदम्, सेकेण्ड् कालम् सेकेण्ड् वर्ड्।
ओके,
प्रथमपुटे
प्रथमपुटे ओ
भवान् शब्दस्य अर्थः
नकारान्तः पुल्लिङ्गः आत्मन् शब्दः, आत्मा, आत्मानौ, आत्मानः, आत्मानम्, आत्मानौ, आत्मनः, आत्मना, आत्मभ्याम्, आत्मभिः, आत्मने, आत्मभ्याम्, आत्मभ्यः, आत्मनः, आत्मभ्याम्, आत्मभ्यः, षष्ठी आत्मनः, आत्मनोः, आत्मानाम्, आत्मनाम्, सप्तमी आत्मनि, आत्मनोः, आत्मसु, सम्बोधनम्, आत्मन्, आत्मनौ,
आत्मानौ, आत्मानौ,
आत्मानः,
आत्मानः। समीचीनं भगिनि, धन्यवादः। अस्तु, तत्र तादृश तत्र मरुत् शब्दः अपि एकवारं पठामः, तदनन्तरं तत्र रघुवीरानन्दस्वामिः तत्र मरुत् शब्दस्य रूपम् एकवारं पठति वा?
आं महोदय, मरुत् मरुतौ मरुतौ मरुतः मरुतं मरुतौ मरुतः मरुता मरुद्भ्यां मरुद्भिः मरुते मरुद्भ्यां मरुद्भ्यः मरुतः मरुद्भ्यां मरुद्भ्यः मरुतः मरुतोः मरुतां मरुति मरुतोः मरुत्सु हे
समीचीनं
हे मरुत् अथवा हे मरुद् मरुतौ हे मरुतौ हे मरुतः
हा समीचीनं महोदय धन्यवादः हा अस्तु हा अत्र एतादृश हलन्तरूपाणि कुत्र कुत्र आगच्छति इति तत्र अग्रे अपि पश्यामः किन्तु एकमस्ति यत्र वयं शत्रन्तरूपं यत्र भवति तत्र कथायाम् आगच्छति तद् स्वीकृत्य एकवारं तत्र तस्य रूपमपि पश्यामः अतः एकवारं पुनः तत्र कथाम् एकवारं पठामः तत्र नरेश महोदय आरम्भं करोति वा पुनः एकवारं तत्र कथायाः पठनं
नद्यां निमज्जतोः बालयोः प्राणरक्षणं यतवतः छात्रस्य सत्यजितः सम्मानन समारम्भः प्रवर्तमानः अस्ति दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति एतम् उच्चैः पठत अवगच्छत च अध्यक्षः सर्वेभ्यः नमः महत्यां व्यपदि समागतायाम् आत्मनः प्राणानां त्रीणीकृत्य हरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति प्रवृत्तां घटनां सत्यजितः मुखात् एव अहम् इदानीं श्रोष्यामः
हा वयम् इदानीं श्रोष्यामः समीचीनं महोदय अस्तु हा तत्र तत्र एतद्रूपं प्रथमतया एव तत्र एतत् पदमस्ति निम्मजतोः बालयोः इति निम्मजतोः इति कीदृशरूपं शुभदा भगिनि निम्मजतोः वचनं किम्
निम्मजतोः षष्टिविभक्ति द्विवचन
द्विवचन हा समीचीनं भगिनि हा षष्टि तत्र एकवचने प्रथमविभक्तिरूपं किं भवति इति स्मरति वा
एकनिमिषं मज्जतौ
हा तत्र हा चिन्ता मास्तु भगिनि तत्र किम् अस्ति इत्युक्ते तत्र निम्मज् तत्र निमज्जन् इति भवति रूपं निमज्जत् इति प्रातिपदिकं तकारान्तपदम् अस्ति अतः प्रथमतया एतत् कुर्मः निमज्जतोः इति पूर्वं तादृशपदानां अभ्यासम् एकवारं कुर्मः तत्र गच्छति इति क्रियापदम् अस्ति गम् इति धातुः तस्य तत्र यदि वयं तत्र गमनक्रियापि भवति तस्मिन्नेव काले वयं किमपि अन्यत् कुर्मः तत्र अहं गच्छामि तस्मिन्नेव समये अहं पश्यामि तत्र किं वदामः रूपं किं भवति अहं गच्छन् पश्यामि इति भवति तत्र गच्छन् इति किं भवति तत्र अहं गच्छन् पश्यामि इति वाक्यम् अस्ति सर्वे अवगच्छन्ति खलु अहं गच्छन् पश्यामि इति वाक्यं तत्र कर्तृपदं किम् अस्ति अहं क्रियापदं किम् अस्ति पश्यामि इति अस्ति तत्र गच्छन् इति विशेषणं भवति गच्छन् अहं पश्यामि इति भवति गच्छन् इति विशेषणं भवति अहं गच्छन् पश्यामि तत्र रामः गच्छन् पश्यति इदानीं सीता अस्ति चेत् किं भवति तत्र सीता गच्छन् पश्यति न भवति सीता किं भवति
गच्छन्ति सीता
हा सीता गच्छन्ती पश्यति अतः तत्र लिङ्गभेदः अस्ति इति कृत्वा तद् क्रियापदं नास्ति विशेषणम् अस्ति विशेष्यम् अस्ति रामः वा तत्र गच्छन् रामः पश्यति अथवा गच्छन्ती सीता पश्यति इति अतः तत्र गच्छत् इति शब्दः गच्छत् इति प्रातिपदिकं तत्र पुल्लिङ्गरूपम् अस्ति प्रथमविभक्तौ एकवचने गच्छन् स्त्रीलिङ्गे गच्छन्ती इति अस्ति गच्छन्ती इति पदं तु वयं सर्वे जानीमः तत्र ईकारान्तस्त्रीलिङ्गपदं नदीवत् अतः तस्य पदस्य विभक्तिरूपाणां विषये किमपि चर्चा नास्ति वयं सर्वे जानीमः नदी नद्यौ नद्यः इति सर्वं जानीमः किन्तु गच्छन् इति पदस्य रूपाणि किञ्चित् तस्य स्मरणं कुर्मः तत्र गच्छत् इति प्रातिपदिकं गच्छन् इति प्रथमाविभक्तिरूपम् इदानीं तत्र द्विवचने बहुवचने किं भवति इत्युक्ते तत्र भवान् इति अस्ति भवान् भवन्तौ भवन्तः तत्र गच्छन् गच्छन्तौ गच्छन्तः इदानीं तदनन्तरं द्वितीया विभक्तौ किं भवति गच्छन्तं भवन्तं गच्छन्तं पुनः द्विवचने गच्छन्तौ तदनन्तरं किं भवति तत्र भवतः अस्ति खलु भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः इति तादृश अत्रापि गच्छतः इति रूपं भवति तत्र किमस्ति तत्र गच्छन् इति गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ तदनन्तरं गच्छतः इति रूपं तदनन्तरं गच्छता गच्छद्भ्यां गच्छद्भिः इति तादृशरूपं भवति अस्तु तत्र एकवारम् एतस्य अभ्यासं कुर्मः तत्र रघुवीरानन्दस्वामी तत्र पठन् इति पदस्य रूपाणि वदति वा एकवारं पठन् पठन्तौ पठन्तः इति भवति तदनन्तरं भवान् शब्दवत् तादृश एव
महोदय अहं स्वयं वदामि वा महोदय
वदतु वदतु तत्र करपत्रं किमपि न अपेक्षितं तत्र
पठन् पठन्तौ
पठन्तः समीचीनं हा अग्रे द्वितीय द्वितीयभक्तौ
पठन्तं पठन्तौ पठन्तः
तत्र पठतः यथा भवतः शब्दः भवति तत्र पठतः
भवान् अस्तु महोदय
तत्र भवान् भवन्तौ भवन्तः पठन् पठन्तौ पठन्तः
पठता पठद्भ्यां पठद्भिः
पठता पठद्भ्यां पठद्भिः
पठते पठद्भ्यां पठद्भ्यः पठतः पठद्भ्यां पठद्भ्यः पठतः पठतोः पठतां पठतां पठति पठतोः पठत्सु
इति समीचीनं महोदय हा समीचीनं तावदेव हा अस्तु इदानीं तत्र हा शुभदा भगिनी भवती तत्र गच्छत् इति पुल्लिङ्गरूपं स्वीकृत्य गच्छन् इति एकवारं वदति वा भगिनि
गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः गच्छता गच्छद्भ्यां गच्छद्भिः गच्छते गच्छद्भ्यां गच्छद्भ्यः गच्छतः गच्छद्भ्यां गच्छद्भ्यः गच्छतः गच्छतोः गच्छतां गच्छति गच्छतोः गच्छत्सु गच्छन् गच्छन्तौ गच्छन्तः
हा समीचीनं भगिनि समीचीनं हा तावदेव हा अस्तु अस्तु तत्र अस्तु तत्र इदानीं तत्र अत्र अस्ति निम्मज्जतोः इति बालयोः तदस्ति षष्टिद्विवचनं निम्मज्जन् निम्मज्जन्तौ निम्मज्जन्तः तदनन्तरं निम्मज्जन्तं निम्मज्जन्तौ निम्मज्जतः निम्मज्जतः इति तत्र किं भवति रूपे यथा भवान् शब्दे भवत्शब्दस्य रूपे किं भवति विभक्तिरूपाणि तत्र एकविंशति रूप पदानि सन्ति खलु तत्र सप्त सप्तविभक्तयः अपि वचनत्रयम् इति कृत्वा एकविंशति पदानि सन्ति किन्तु प्रथमपञ्चपदे नकारः अस्ति भवान् अस्ति भवन्तौ अस्ति भवन्तः अस्ति भवन्तं भवन्तौ इति तदनन्तरं किम् अस्ति नकारः नास्ति तादृश एव तत्र पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः तदनन्तरं पठता पठद्भ्यां पठद्भिः त नकारः नास्ति गच्छन्नपि तादृशः एव एतद् अग्रे आयाति किन्तु अत्र अवकाशः प्राप्तः इति कृत्वा एकवारं पश्यामः इति चिन्तनं तावदेव
महोदय प्रत्ययः किं महोदय तत् पठ धातुः प्रत्ययः किं पठन् इति
तत्र शत्रन्तरूपं शत्रुप्रत्ययः शत्रुप्रत्ययः एतत् गीतासोपने द्वितीयभागे एव अस्ति महोदय अग्रे कुर्मः किन्तु अत्र अस्ति इति कृत्वा किञ्चित् एकवारं
केवलं प्रत्ययं किम् इति
प्रत्ययमस्ति शत्रन्तप्रत्ययम् अपि रूपं हलन्तपदानां ज्ञानम् इदानीं प्राप्तमस्ति अतः तदपि तादृशरूपमपि अतः यद्यपि धातुः अस्ति तस्य शत्रन्तरूपं स्वीकृत्य तस्य विभक्तिरूपाणि वयं कर्तुं शक्नुमः यतोहि तत्र तत्र एतादृशपदानां अन्तिमवर्णः अस्ति त इति अतः तकारान्तशब्दः भवति पठत्वा गच्छत्वा दधत्वा निमज्जत्वा सर्वं तकारान्तपदम् अतः भवान् शब्दस्य रूपाणि जानीमश्चेत् एतदपि कर्तुं शक्नुमः अस्तु समीचीनम् इदानीं तत्र अग्रे किञ्चित् गच्छामः किन्तु तस्य पूर्वं तत्र क्षण अपि चित् इति रूपम् अस्ति अतः तत्र कः योगः क्षण भवति कश्चन इति अतः तत्र तस्यापि किञ्चित् अभ्यासं कुर्मः तत्र कः इति पदस्य रूपाणि तत्र नरेशमहोदय वदति वा तत्र ये प्रथमविभक्ति द्वितीयविभक्तिरूपं तावदेव कः कौ
कः कौ के कं कौ कान्
हा इति इदानीं तत्र कश्चन अथवा कश्चित् यत् किं कुर्मः चित् इति छन इति कुर्मः कश्चन कः योगच्छन कश्चन इदानीं तत्र कौ योगः छन किं भवति
कौचन
कौचन बहुवचने
केचन
केचन इदानीं द्वितीयविभक्तौ किं भवति कं योगः छन
कञ्चन
हा तत्र किं भवति तत्र चकारस्य प्रभावेन मकारः चन्या यत् अस्ति तत्र न्या भवति अतः कञ्चन इति रूपं भवति तत्र हा कञ्चन पुनः कौचन
कौचन
हा तत्र काञ्चन कान् पुनः न्या तत्र चच्च जन्या एव भवति काञ्चन इति रूपम् अस्तु समीचीनं महोदय इदानीं तत्र सूर्यकुमारी भगिनी तत्र कः पदस्य तत्र कः कौके कं के कान् इदानीं तृतीया अपि चतुर्थी किं किं भवति
केन काव्यां केभिः
कैः
कैः
कैः कस्मै
कस्मै काव्यां केभ्यः
केभ्यः इदानीं तत्र चन इति योजनं योजयतु तत्र
केचन
न न केन इति अस्ति
न न न कं केन केञ्चन
हा केन केनचन केन चन
केन
केन इति नास्ति तत्र अकारः तदनन्तरं मकारः अस्ति अतः तत्र केनचन
केनचन केनचन
काभ्यां काभ्याञ्चन
काभ्यां
काभ्याञ्चन
काभ्याञ्चन
कैः इति अस्ति तत्र विसर्गः अस्ति अतः कैश्चन कैश्चन यतः यथा तत्र कः तत्र कः मध्ये अपि विसर्गः अस्ति अन्ते कः योगः चन कश्चन कैः योगः चन कैश्चन कस्मैचन केभ्यश्चन इति अस्तु अतः तत्र तादृशरूपं तावत् इदानीं पर्याप्तम् इति मन्ये अस्तु तत्र कः पदस्य योगेन तत्र चित् अथवा चन योजयामश्चेत् कीदृशरूपं भवति इति किञ्चित् ज्ञानं भवतु इति तावदेव अस्तु तर्हि अग्रे गच्छामः तत्र गीताञ्जलिभगिनी नमस्कारः भगिनी
नमस्ते महोदय क्षम्यतां महोदय
चिन्ता मास्तु भगिनि अस्तु इदानीं तत्र वयं पुनः तत् गतवर्गे यां कथां पठितवन्तः तामेव कथां पुनः पठन् स्मः अस्तु इदानीं तत्र
एकः प्रश्नः कस्मिन् प्रसङ्गे चन इति उपयुज्यामः
तत्र कः इत्युक्ते कः इत्युक्ते प्रश्नार्थकपदं खलु तत्र कः अस्ति चेत् तत्र
चन एण्ड् चित् उपयोगः
चन चित् अर्थसमानमस्ति एतत् चिन्तयतु बालकः अस्ति a boy is there iti his name is rama a boy is there his name is rama iti vaktum icchati bhavati bhavati kim vadati tatra a boy iti kopi balakah manasi esha balakah iti na 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 bhavati kintu tasmin samye kim vadamah ek balakah yadi vadamah ek balakah kim bhavati manasi kopi ये प्रत्येकबालकः अस्ति वा वेन् यु से अ बाय् यु जस्ट् मीन् अ बाय् यु डोण्ट् हेव् एनिबडि इन् मैण्ड् रैट्
नो नो महोदय मै क्वेश्चन् इस् डिफरेण्ट् इट्स् अ बिट् डिफरेण्ट् ऐ अण्डर्स्टाण्ड्
दट् वेन्
इट् इस् चन एण्ड् वेन् इट् इस् चित्
ओ तत्र अस्तु अस्तु तत्र यत् यथा इच्छा तत्र समानार्थक चित् वाचन समानार्थक यदि सुलभं चित् सुलभम् अस्ति चित् उपयोज तस्य उपयोगं करोतु चन अस्तु अस्तु अहं चन इच्छामि चेत् चन इति तावदेव तत्र कोऽपि नियमः अस्ति नियमः नास्ति यथार्थं
सन्धि विषये भेदः
हा किन्तु अर्थभेदः नास्ति अतः यत् यत् इच्छति तत् कर्तु तस्य प्रयोगं कर्तुं शक्नोति अस्तु हा इदानीं रघुवीरानन्दस्वामी तत्र नरेश् महोदय तत्र प्रथमपरिच्छेदं पठितवान् तत् तत्र किं किम् अस्ति इति किञ्चित् स्वशब्दैः वदति वा तत्र महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः इति स्वशब्दैः
महोदय. एकं महान् विपत् पुरतः आसीत्
तत्र विपत् इति स्त्रीलिङ्गपदमस्ति महोदय, अतः तत्र महती इति.
ओ महोदय,
एका महती विपत्, तत्र महत्या महत्या विपत् दक्तकारन्त स्त्रीलिङ्गपदं महोदय. अग्रिमे पुटे अस्ति, पेज् 27 मध्ये अस्ति, दकारान्त स्त्रीलिङ्ग
महती विपत् पुरतः आसीत् तदापि बालकः
सत्यजित्
बालकः सत्यजित् स्वप्राणान् स्वप्राणान् अल्पे अल्पम् इति मत्वा सः जले तरित्वा द्वौ बालकौ रक्षितवान्. तस्य सत्यजितः सम्माननाय सम्मानं कर्तुं अत्र समावेशः आयोजितः अस्ति.
अथवा वयं सर्वे आगताः अथवा अस्तु महोदय, तदपि समीचीनं. तत्र सम्माननं सम्माननाय सम्माननम् अथवा सम्माननार्थम् अपि तदपि वक्तुं शक्नुमः. समीचीनं, बहु समीचीनम् अस्ति महोदय. अतः सम्मानस्य कृते वयं सर्वे अत्र आगताः स्मः इति. समीचीनं महोदय, बहु समीचीनम्. अस्तु, अग्रे तत्र अग्रिमवाक्यं यदस्ति तत्र गीताञ्जलि भगिनी, तत्र अग्रे तत्र एतत् भवती एव पठित्वा तत्र किञ्चित् स्वशब्दैः वदतु भगिनि. तत्र अयं धीरः बालकः तद्वाक्यं.
हा महोदय, प्रयत्न करोमि. अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति.
इदानीं स्वशब्दैः वदतु यदस्ति तत्र.
हा महोदय, प्रधानमन्त्री मन्त्रितः अपि मुख्यमन्त्रितः तत् सः धीरः बालकः धीरता
करोतु भगिनि. तत्र वाक्यद्वयं वदतु तर्हि तत्र प्रधानमन्त्रितः.
हा, प्रधानमन्त्रितः मुख्यमन्त्रितः सः धीरबालकः धीरता पुरस्कारान् तुमुन् प्रत्यय महोदय, प्राप्तुम् इत्युक्ते
अर्हति,
प्राप्तुम् अर्हति.
अस्तु, किञ्चित् भेदः अस्ति, यतोहि एषः प्राप्तवान् किन्तु
प्राप्तवान् अस्ति. प्राप्तवान् इत्युक्ते भूतकालार्थकः.
भूतकाले
सः धीरः बालकः धीरता पुरस्कारान् अप्राप्नोत्
न न प्राप्नोत् केवलं प्राप्नोत् यतोहि तत्र प्र इति उपसर्ग अस्ति
प्र अस्ति एव प्राप्नोत्
प्राप्नोत्
एव
प्राप्नोत् कस्मात् कस्मात् धीरता पुरस्कारान् एषः प्राप्नोत् प्रधानमन्त्रिणः प्राप्नोत् अपि न न मन्त्री
मुख्यमन्त्रिणः इति
तदेव पञ्चमी विभक्ति अस्ति मन्त्रिणः एव अतः कस्मात् सः प्राप्तवान् धीरता पुरस्कारान् एषः प्रधानमन्त्रिणः प्राप्तवान् अपि मुख्यमन्त्रिणः च प्राप्तवान्
प्राप्तवान्
समीचीनम् अस्तु तत्र न न अहं जानामि तत्र क्लेशः अस्ति अतः अतः एव अस्यां कथायां पुनः अद्य अपि किञ्चित् अभ्यासं कुर्मः इति एव चिन्तनं कृत्वा वयं स्मः अत्र अस्तु अग्रे तत्र सूर्यकुमारी भगिनी हा अग्रे तत्र यद् अस्ति तत् तत्र एतत् अस्माकम् इति आरभ्य लघुवाक्यम् अस्ति तद्
अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति
एतत् किं एतत् हा तत्र पदं पदं तस्य अर्थः मास्तु केवलं तत्र यदस्ति किञ्चित् परिवर्त्य वदतु भगिनि तावदेव
एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति एतत् तत्कारणेन एतत्
तेन कारणेन अस्तु हा तेन कारणेन एतेन कारणेन एतेन कारणेन वयं सर्वे अभिमानपूर्णाः अभिमानपूर्णाः
आवश्यकम् अस्ति
अभिमानपूर्णाः स्मः
स्मः
वयं सर्वे स्मः वयं सर्वे अभिमानपूर्णाः स्मः अस्तु समीचीनं तादृश लघु लघु परिवर्तनं किञ्चित् स्वशब्दैः यत् अवगतं तावदेव अग्रे वक्तुम् इच्छति चेत् वदतु भगिनि नो चेत्
महोदय अभिमानपूर्णाः इति अहं न अवगतम्
अभिमानम् भवति इति तावदेव अभिमानः गर्वः अथवा गौरवः आस्पदम् इत्युक्ते तस्य वर्धनम् अथवा जनकम् इति अभिमानास्पदं किन्तु किञ्चित् परिवर्तनं कृत्वा तत्र यदि तदेव अर्थः न भवति चेत् किञ्चित् परिवर्तयित्वा अपि वक्तुं शक्नुमः इति सुलभार्थम्
किन्तु कीदृशपदम् अभिमानपूर्णाः इति
पूर्णाः वयं हा तत् अभिमानपूर्णाः तत्र प्रायशः बहुव्रीहि समासः भवति भगिनि तत्र हा पूर्णः किन्तु केन पूर्णः अभिमानेन पूर्णः किन्तु पूर्णः इति कः वयम् अतः तत्र अन्यपदं प्राधान्यं भवति इति तादृश अग्रे एतत् कुर्मः भगिनि इदानीं मास्तु किन्तु किन्तु वयम् अभिमानं अभिमानपूर्णाः स्मः इति इत्युक्ते अस्माकं मनसि अभिमानपूर्णतया अस्ति इति तादृशार्थे सूर्यकुमारी भगिनी अग्रे वक्तुम् इच्छति वा अथवा अस्तु वदतु भगिनि
एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति भिन्नरूपेण क्षम्यताम् एते विवेकिनः धीमतः धैर्यवन्तः बालाः देशस्य एषः जगति भविष्यति.
न न एते एते भविष्यति इति न भवति, एते इति कर्तृपदं भवति इदानीं. एते विवेकिनः
धीमताः
धीमताः इति तत्र धीमत् इति तत्र धीमन्तः धैर्यवतां धैर्यवान् इति धैर्यवान् धैर्यवन्तौ धैर्यवन्तः
बालाः
बालाः समीचीनं. देशस्य देशस्य
देशस्य
यशं यशं
देशस्य यशं जगतिं भविष्यति.
न न न जगति यश् अथवा देशस्य यशस्य प्रसारणं प्रसारणं कुर्वन्ति अथवा देशस्य यशं जगति प्रसारयन्ति
प्रसारयन्ति.
अत्र भवत्याः वाक्ये तत्र प्रसारयन्ति इति क्रियापदम् अस्ति, कर्तृपदं किम् अस्ति? यन्ति क्रियापदं, कर्तृपदं किं? कर्तृपदं किं? हा बालाः. कीदृशबाला इत्युक्ते तदनन्तरम् एते विवेकिनः सर्वम् आगच्छति, किन्तु बालाः प्रसारयन्ति. कुत्र प्रसारयन्ति? जगति प्रसारयन्ति. किं प्रसारयन्ति? यशं. तत्र प्रायशः मम दोषः प्रायशः अस्ति तत्र यशः इति. हा 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 क्षम्यतां, यशः प्रायशः तत्र यशस् इति अस्ति, अतः तत्र यशः इति तत्तु सकार यशस् इति सकारान्तपदम् अस्ति, अतः सकारान्तनपुंसकलिङ्गपदम् अस्ति इति कृत्वा प्रायशः तत्र यशः एव कर्मपदद्वितीयविभक्तिरूपमपि भवति, अतः यशः जगति प्रसारयन्ति प्रसारयन्ति. हा एते बालाः देशस्य यशः जगति प्रसारयन्ति इति. समीचीनं भगिनि, अस्तु. हा अग्रे तत्र शुभदा भगिनी प्रयत्नं करोति वा अग्रे?
आं महोदय, प्रयत्नं करोमि. प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः. अध्यक्षः वदति एषां घटनां सत्यजित् एव आत्मनः
सः
एव आत्मनः मुखेन एतां घटनां वदति वयम् इदानीं श्रोष्यामः.
हा समीचीनं भगिनि. हा सत्यजित् सः एव एतां घटनां स्वमुखात् अथवा आत्ममुखात्
आत्मनः मुखेन
आत्मनः मुखेन अस्तु आत्मनः मुखेन अस्तु स्वस्य मुखेन अस्तु आत्मनः मुखेन एव वदति अतः तत् श्रोष्यामः. समीचीनं भगिनि. हा अस्तु, बहु समीचीनम् अस्ति. अग्रे अपि वदति वा
महोदय? एकः प्रश्नः महोदय, तस्य वाक्येन वाक्ये सत्यजिता सह न तृतीय एव महोदय,
कुत्र
सत्यजित सह कथं
कुत्र 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 तत्र किं वाक्यं भगिनि?
न न भगिनी उक्तवती सत्यजित् सः
न न सत्यजित् सत्यजित् यः अस्ति सः एव अथवा
सः इत्युक्ते अस्तु सर्वनाम. ओ अस्तु, क्षम्यतां भगिनी, अहं न अवगतम्.
हकारः नास्ति, विसर्गः अस्ति, विसर्गः अस्ति तत्र.
सत्यजित् सः इति अधुना तु अवगतं
सर्वेषां विदुषां चरणकमलयोः मम नमस्कारः नमस्काराः सत्यजित् एतां घटनां वक्तुं आरम्भं करोति सः वदति सः प्रारम्भे सर्वेषां नमस्कारः करोति सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः
तत्र अन्यरूपं तत् अन्यत्र
नमस्सर्वेभ्यः
अपि विदुषाम् इति तत्र कीदृशपदं विद्वान् इति विद्वान् विद्वस् इति पदं खलु
विद्वत्सकारान्तपदं
हा षष्टि बहुवचन तत्र एतत् कर्तुं शक्नुमः खलु तत्र ये विद्वांसः सन्ति अत्र ये विद्वांसः सन्ति तेषां सर्वेषां चरणकमलयोः मम नमस्काराः इति तत्र लघु लघु परिवर्तनं यदि कुर्मः सुलभः भवति वयमपि किञ्चित् तस्य अवगमनस्य वर्धनं भवति इति कृत्वा तावदेव अस्तु अग्रे भगिनि
तस्मिन् दिने विरामः आसीत्
तत्र किमपि कर्तुं न शक्नुमः अस्तु अग्रे
अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम् विरामदिने अहं क्रीडितुम् इच्छामि अतः अहं
सुहृदाम् इति स्थाने मित्रम् इति भवति चेत् किं भवति
मित्राणां सह अहं क्रीडितुम् इच्छामि अतः अहं स्वगृहतः गच्छन् आसम्
अहम् अगच्छत् अस्तु किन्तु भगिनि तत्र मित्रम् इति स्थापयामः अथवा सुहृदाम् इति अस्ति तस्मिन् तत्र सुहृदां वा मित्राणाम् इति वक्तुं शक्नुमः किन्तु यदि तेन सह इति अथवा तैः सह तत्र बहुवचनम् अस्ति खलु तत्र मित्रं मित्रेण सह अथवा मित्रं या एषः मम मित्रं तेन सह अत्र मित्रैः सह इति समीचीनं भगिनि हा मित्रैः सह क्रीडितुम् इच्छामि समीचीनं भगिनि
क्रीडितुम् इच्छामि अतः स्वगृहतः मम गृहतः अगच्छत्
समीचीनं भगिनि समीचीनम् अस्तु अग्रे नरेश महोदय प्रयत्नं करोति वा महोदय नरेश महोदय क्षम्यतां महोदय म्यूट् मध्ये
परितः तीरेण गच्छतः मम मनसि कञ्चित् कालं तरितरामि तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः परितः समीपे गच्छन् अस्मि मम मनसि चिन्तितवान् अहं कञ्चित् कालं अत्र तरति तरामि
तत्पश्चात्
अहं मित्राणां दर्शनार्थं गच्छामि।
हा बहु समीचीनं महोदय, बहु महोदय तत्र एको अस्ति, न जानामि किमर्थम् इति।
किम्
एको? एको
ओ एको अस्ति अत्र, इन्स्ट्रुमेण्ट् अस्ति
इदानीं प्रायश, इदानीं नास्ति महोदय, इदानीं समीचीनम् इदानीं नास्ति महोदय,
समीचीनमस्ति,
सम्यक् अपि श्रूयते इदानीं। अस्तु समीचीनं, तत्र सरितः तीरेण गच्छतः मम मनसि, अहं गच्छन् आसम्, मम मनसि अहं चिन्तितवान् तत्र कञ्चित् कालं सरिति तरामि। तत्र कञ्चित् इति रूपं कीदृशं?
द्वितीयविभक्ति,
समीचीनं, कं योगः चित् कञ्चित्। हा तत्र कालः इति पुल्लिङ्गपदं, तत्र कालम् इति अस्ति, कालं सरिति धरामि इति। तत्र कालम् इति द्वितीयविभक्तिरूपम् अस्ति खलु, अत्र सरिति तरामि इति। किन्तु तरामि अकर्मकः धातुः वा सकर्मकधातुः वा?
अकर्मकः,
अकर्मकः, अतः कालम् इति तु कर्मपदं न भवति, भवति खलु?
न, कर्मपदं नास्ति, कञ्चित् कालं
सरिति तरामि, तत्र किं तरामि इति न भवति खलु, किं तरामि इति न भवति, किं तरति, किं तरामि इति तत्र कर्मपदं न भवति, अतः तत्र किम् अस्ति, कञ्चित् कालं, तत्तु सर्वे अङ्गीकुर्मः खलु, तत्तु द्वितीयविभक्तिरूपमेव इति। हा अतः तत्र भेदः कः इत्युक्ते, तत्र वयं जानीमः विभक्ति इति अत्र रूपं द्वितीयाविभक्तिरूपम् अस्ति, कञ्चित् कालं, तत्र कालम् इति विशेष्यं, कञ्चित् इति विशेषणं। तत्र प्रथमविभक्तिरूपं किं भवति?
कश्चित् कालः,
कश्चित् कालः, समीचीनं महोदय। हा अतः कश्चित् कालः, इदानीं कञ्चित् कालम् इति द्वितीयविभक्तिरूपम्। अत्र विभक्ति केवलं रूपमस्ति, किन्तु कारणमिति नास्ति। हा तत्र किमर्थम् एतद् रूपम् इति, हा तत् भिन्नविषयः अस्ति। अत्र रूपम् अस्ति विभक्ति, तस्य कारणं किम्, अत्र कर्मपदं वा, तद् एकं कारणं भवति, किन्तु अन्यत् अपि कारणं भवितुम् अर्हति। वयं पूर्वमपि दृष्टवन्तः इति मन्ये, कोऽपि स्मरति वा, अन्यत् अपि कारणम् अस्ति विभक्तेः, द्वितीयविभक्तेः कारणम्। गीतासोपाने द्वितीयभागे आरम्भे एतद् दृष्टवन्तः, दशपुट पूर्वम् अथवा एकादशपुट पुटपूर्वं, हा तत्र उपपदविभक्तिः इति पठितवन्तः खलु,
स्मरामि।
हा हा तादृश, अत्र कालम् इति तत्र यावत् इति पदं भवति। हा यदा वयं वक्तुमिच्छामः एकघण्टां यावत् अहं संस्कृतं पठितवान्, एकघण्टां यावत्, यावत् अस्ति चेत् तत्र कालस्य किं तस्य परिमाणं दर्शयति। हा एकघण्टां यावत्, तत्र यावत् अस्ति चेत् घण्टाम् इत्यस्य पूर्वं तत्र विभक्ति, द्वितीयविभक्ति, कालस्य समयस्य द्वितीयविभक्तिरूपं भवति इति नियमः। अतः तत्र कञ्चित् कालं यावत् सरिति तरामि, यदि तावत् अस्ति न वा इति तत्र कोऽपि क्लेशः मास्तु, किन्तु तत्र यावत् इति तत्र स्थापयितुं शक्नुमः। अतः तत्र कञ्चित् कालं यावत् सरिति तरामि इति, अतः तत्र कञ्चित् कालम् इति रूपम् अस्ति तत्र। अस्तु समीचीनं,
तरामि उभयपदी, सरिति कर्मपदमपि
सरिति किमर्थं कर्मपदं सरिति इति पदस्य विभक्ति का
सरिति
सरस् इति न सरित् 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 इति अस्ति तत्र यत् भवती चिन्तितवती तत्तु समीचीनमेव सरस् इति एकम् अस्ति सरित् इति एकम् अस्ति किन्तु तत्र सरस् सरसि सरांसि अपि सरित् तत्र सरित् एकं सरस् अन्यत् किन्तु अत्र सरस् नास्ति सरित् एव अस्ति अतः सरिति इति किं भवति शुरुकमेव भगिनि सरिति इति विभक्ति का समीचीनं हा अतः कर्मपदं न भवति खलु अस्तु हा तत्र सरित् एकमस्ति सरस् अन्यत् अस्ति इति उक्तवन्तः खलु तत्र भेदः कः कोऽपि स्मरति वा अन्य कोऽपि वक्तुम् इच्छन्ति वा इच्छति वा सरस् इत्युक्ते किं सरित् इत्युक्ते किं कः भेदः इति द्वयमपि जलस्य विषये एव जलसम्बद्धपदं सरित् वा सरस् वा एकं चरति अन्यत् न चरति किं न चरति सरित् वा सरस् वा
चलति
किं चलति किं चरति सरित् हा अस्तु सरस्
सरस् इति तडाग अर्थे
सरस् सरस् न चलति सरित् चलति
सरित् प्रवहति
अपि सरस् इति तत् पदं तु वयं सर्वे जानीमः खलु तत्र सरस्वती तत्र सरस् एव अस्ति सरस् योगः वति सरस्वती अतः सरस्
चलति इति एकं न चलति तत्तु एकम् अर्थः अस्ति न महोदय
हा तादृश हा तत्र घनजलराशिः इति तादृश एकस्मिन् स्थले एव अस्ति इति प्रायशः तत्र द्रष्टव्यमस्ति किन्तु सरस्वती इति पदे तत्तु सरस् इति क्रियापद तत्र नामपदम् अन्तर्भूतः अस्ति तत्र सरस्वती मध्ये सरस् इति
इत्युक्ते कमल
पद्मावती अस्ति पद्मावती इति अस्ति हा तत्र
महोदय अहम् इति वदामि तडागे एव कमल अस्ति नद्यां मध्ये तु
कमलं न भवति अस्तु 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 समीचीनं भगिनि हा हा अस्तु अतः सरसि सरस् हा सरस् तत्र सरस् इति पदस्य सप्तमी किं भवति
सरसि
सरस् सरसि सरांसि तत्र न न सरस् सरस् तु सकारान्त स्त्रीलिङ्गपदम् अस्ति अप्सरस् इति हा अत्र सप्तमी अपि सरसि एव अस्ति एकवचने हा सरसि एव कमलं भवति न तु सरिति
यथा महोदय यथा आशिस्
सत्यं सत्यं हा आशिस् हा हा तत् तदेव प्रायश
समानेव
आशिष् इति सकारान्तपदम् अस्ति भगिनि
मञ्जर्यामेव पश्यामि महोदय अधुना
इति वा
सकारान्त स्त्रीलिङ्गः आशिष् शब्दः ब्लेसिङ्ग् तेज पञ्चाशत्
किन्तु प्रथमविभक्तिरूपं किम् अस्ति हा अतः तत्र अस्तु तत्र प्रायशः तत्र अस्तु अतः प्रायशः तत्र सरस् इति सकारन्त अप्सरस् पदम् इति स्वरूपमहोदयेन स्वीकृतम् अस्ति करपत्रे यतोहि तत्र अकारन्तम् अस्ति खलु तत्र तत्र सकारस्य पूर्वम् अप्सरस् सरस् किन्तु आशिष् मध्ये शपूर्वम् ईकारः अस्ति ईकारान्त किञ्चित् रूपभेदः भवति खलु तत्र आशिः अस्ति
विभक्ति किं महोदय एकवचनं
अप्सराः
सरसाः इति
एकनिमिष
अत्रैव अस्माकं पुस्तके एव अस्ति अतः पश्यामः तत्र सरस् 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 हा 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 धन्यवादः भगिनी आमामामामां सरसति इति नपुंसकलिङ्गपद सरस सरः सरसि सरांसि पेज् हा मनः मनसि मनांसि तत्र पेज् 14 मध्ये दत्तमस्ति हा अस्तु समीचीनं हा
14 शब्दमञ्जर्यां महोदय
न न भगिनि शब्दमञ्जर्यं गीतासोपन्ये द्वितीयभागे पेज् 14 मध्ये तत्र हा तत्रैव दत्तमस्ति अतः हा अस्तु तर्हि अग्रे गच्छामः इदानीं तत्र इदानीं तत्र रघुवीरानन्दस्वामी अग्रे पुनः वदति महोदय
किम् आं महोदय
इदानीं तरणार्थम् उद्युक्तः अहम्
आं महोदय तरणार्थम् उद्युक्तः अहम् अन्ये किञ्चित् म्यूट् मध्ये भवतु कृपया तरणार्थम् उद्युक्तः अहं किञ्चित् अग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान् महोदय तत्र कानिचन
तत्र इदानीं कानिचन इति भवति समीचीनं महोदय तत्र कानिचन वस्त्राणि तत्र
महोदय वर्णमेलं कृत्वा तद् भवति वा कानिचन पदद्वयं
कानियोगः चन तावदेव तत्र सन्धिकार्यं किमपि नास्ति तत्र कानियोगः चन
कश्चन इति कः
विसर्गः अस्ति अतः तत्र किमपि करणीयम् अत्र तु किमपि
किन्तु तत्र किमपि नास्ति अतः तर्हि एकपदमेव
कानिचन इति पदं एकमेव पदं समस्तपदम् इति न तत्र चन इति प्रत्ययः अस्ति तस्य योजनं कृत्वा तत्र कानिचन इति भवति अतः चन इति प्रत्येकं तद् एकं पदम् इति न वक्तुं शक्नुमः इति न इति न भवति
अस्तु धन्यवादः महोदय संशयः
अस्तु इदानीं तत्र कानिचन वस्त्राणि इदानीं वस्त्रमस्ति चेत् किं भवति
कञ्चन
किञ्चन किम् इति भवति खलु किञ्चन किञ्चन इदानीं द्विवचने वस्त्रं वस्त्रे केचन वस्त्रे समीचीनं महोदय समीचीनं इदानीं वाक्यं
तरणार्थम् उद्युक्तः सत्यजितः
सत्यजित्
किञ्चिदग्रे कस्यचित् वृक्षस्य अधः
समीचीनं हा हा वृक्षस्य अधः हा
कानिचन वस्त्राणि अपश्यत्
समीचीनं हा तत्र तरोः इति अस्ति विभक्ति अस्ति षष्टि प्रथमविभक्तिरूपं किमस्ति तरोः पदस्य
तरुः
हा उकारन्त गुरु शब्दवत् समीचीनं महोदय. अतः तरोः अस्ति इति कृत्वा तत्र कस्यचित् इति अस्ति. समीचीनं महोदय. अग्रे अपि करोति वा?
अहं परितः अवलोकितवान् सत्यजितः
सत्यजित्
क्षम्यतां महोदय दत्तः इति सत्यजितः
सत्यं सत्यं
सत्यजित् सर्वे दिशि
तत्र सर्वासु सर्वासु दिक्षु अवलोकनं कृतवान् अवलोकनं कृतवान् अथवा दृष्टवान्
दृष्टवान् परन्तु न कोऽपि तत्र आसीत् किन्तु
तत्र किमपि किन्तु इति तावदेव परिवर्तनं कर्तुं शक्नुमः. अस्तु अग्रे.
पुनरपि सरिति दृष्टिं प्रसारितवान् किन्तु
तत्र
पुनरपि
इदानीं
प्रसारितवान् अहं किञ्चिदग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान् पुनः सर्वासु दिक्षु पुनः
सर्वासु दिक्षु
पुनः सर्वा किन्तु दिक्षु तत्र नास्ति महोदय केवलं सरितेव अत्र तु
पुनः तत्र सरित् सरित् इति अस्ति. तत्र सरित् पदस्य द्वितीयविभक्तिरूपं किं भवति? सरितं
सरितं
पुनः सरितं दृष्ट्वा दृष्टवान्
पुनः सरितं दृष्ट्वा सः किञ्चिदग्रे प्रवाहे सरितः प्रवाहे सरितः प्रवाहे द्वौ बालकौ मज्जन्तौ इति अपश्यत्.
समीचीनं महोदय. तादृश समीचीनं महोदय. अस्तु तत्र दृष्टिं प्रसारितवान् इति रूपम् अस्ति अत्र. दृष्टं दृष्टिं प्रसारितवान् तत्र एतदपि तत्र तत्र प्रसारितवान् तत्र कृतवान् दृष्टवान् इति प्रसारितवान् तत्र तव तु रूपम् अस्ति एतद् भूतकालरूपम् इति अभ्यासपुस्तके वयं वदामः खलु. तत्र एषः गतवान् सा गतवती इति तत्र गतवान् तत्र गतवान् अपि तादृश गतवत् इति तकारान्तपदं भवति. तस्य रूपमपि एकवारं तस्य स्मरणमपि कुर्मः. तत्र तत्र गतवत् इति रघुवीरानन्दस्वामी तत्र स्मरति वा गतवत् गतवान् रूपं किं भवति?
गतवान् गतवान् गतवती गतवत् इति लिङ्गत्रयं महोदय. गतवान् गतवन्तौ गतवन्तः गतवती गतवत् गतवत्यौ गतवत्यः गतवत् गतवत्
हा नपुंसकलिङ्गे तत्र गतवत् गतवती गतवन्ती इति भवति.
ओ
इति ओ इति हा न क्षम्यतां क्षम्यतां गतवत् हा एकनिमिषं महोदय. तत्र प्रायशः न मम दोषः अस्ति. अस्तु न स्मरामि तत्र न तत् तद् न स्मरामि. नपुंसकलिङ्गं न स्मरामि किन्तु पुल्लिङ्गरूपं कुर्मः. तत्र गतवान्
तत् तकारान्तं नास्ति वा? तकार हलन्त
हा हलन्तपदमेव अस्ति तकारान्तपदं गतवत् इति गतवत् इति रूपम् अस्ति
हलन्त नपुंसकलिङ्गपदं
गतवत् इति हा. अतः तत्र तत्र गतवान् गतवन्तौ गतवन्तः इदानीं द्वितीयविभक्तिरूपं किम् अस्ति
महोदय? द्वितीयं तु गतवन्तं
हा गतवन्तं गतवन्तौ. इदानीं पुनः गतवतः
गतवतः
तदनन्तरं गतवती
गतवन्ति सत्यं
तत्तु स्त्रीलिङ्गे स्त्रीलिङ्गे तु सुलभमस्ति न
नपुंसकलिङ्गे
वा नपुंसकलिङ्गे किमस्ति अस्ति किमस्ति
गतवत् गतवती गतवन्ति
ओ इति एव आसीत् अस्तु अहं चिन्तितवान् सम्यक्तया न स्मरामि अस्तु धन्यवादः महोदय अस्तु गतवत् गतवती गतवन्ति अस्तु समीचीनं
जगत् इति तथैव अस्ति
हा जगत् जगति जगन्ति इति हा समीचीनं हा अस्तु इदानीं तत्र गतवान् इति पदस्य तत्तु जानीमः इदानीं तत्र किञ्चित् तत्र एकः अंशः अस्ति तस्य विषये किञ्चित् चर्चां कुर्मः तत्र अत्र दत्तमस्ति सरिति दृष्टिं प्रसारितवान् अहं दृष्टिं प्रसारितवान् इति तत्र तत्र हा प्रसारितवान् हा तदपि कर्तुं शक्नुमः किन्तु अत्र किञ्चित् भिन्नं भिन्नरूपं वक्तुमिच्छामि अत्र तत्र प्रसारितवान् इति तत्र तस्य तत् क्रियापदं प्रसारितवान् इति अस्ति तत्र प्रसारयति इति क्रियापदम् अस्ति तत्र गच्छति तस्य कार्यं कीदृशक्रिया इत्युक्ते गमनक्रिया इति वदामः सः गच्छति गमनावसरे गच्छन् आसीत् तस्मिन् समये गमनावसरे गमनं पठनम् इति श्रुतवन्तः खलु सर्वे गमनं पठनम् इति तादृश तत्र प्रसारित प्रसारयति इति तत्र किं भवति तादृशरूपम् प्रसारणम् इति हा अतः तत्र वयं किं वक्तुं शक्नुमः तत्र सरिति प्रसारणं कृतवान् किन्तु तत्र कीदृशरूपं भवति इत्युक्ते तत्र दृष्टिं प्रसारितवान् इति अस्ति तत्र वाक्यं किं भवति तत्र सत्यजित् दृष्टिं प्रसारितवान् इति स्वीकुर्मः वाक्यं सत्यजित् दृष्टिं प्रसारितवान् तत्र सत्यजित् इति कर्तृपदम् अस्ति क्रियापदं किम् अस्ति अत्र अस्ति इति क्रियापदं न वदामः न उक्तं किन्तु अस्ति इति एव क्रियापदं तत्र यद्यपि प्रसारितवान् इति वयं चिन्तयामः तत् भूतकालरूपं क्रिया सूचयति सः गतवान् इत्युक्ते सः गतवान् गतवान् तत्र क्रियापदं भूतकालरूपम् इति चिन्तयामः किन्तु वस्तुतः तत्पदं तु विशेषणम् अस्ति इति कृत्वा तत्र सत्यजित् प्रसारितवान् अस्ति प्रसारितवान् सत्यजित् अस्ति कीदृशः सत्यजित् प्रसारितवान् सत्यजित् रामः गतवान् अस्ति इत्युक्ते कीदृशः रामः गतवान् रामः अत्र अस्ति गतवान् रामः रामः गतवान् अस्ति गतवान् रामः गतवती सीता सीता गतवती अस्ति तत्र विशेषणम् अस्ति अतः तत्र अस्ति इति क्रियापदं प्रसारितवान् इति अस्ति किन्तु तस्य पूर्वं प्रसारितवान् इति तस्य पूर्वं दृष्टिम् इति अस्ति तत्र कर्मपदं भवति दृष्टिं प्रसारितवान् तत्र सत्यजित् दृष्टिं प्रसारितवान् अस्ति इति वाक्यं भवति तस्य अन्यत् रूपम् अस्ति प्रसारणम् इति उपयुज्य तादृशरूपमपि भवति प्रसारणं कृतवान् तत्र क्रियापदस्य विभजनम् इति तत्र गीतासोपने एकवारं वयं कृतवन्तः क्रियापदस्य विभजनं पठति इति पठनं करोति इति तादृश तत्रापि विभजनं कृत्वा वक्तुं शक्नुमः प्रसारणं कृतवान् इति किन्तु प्रसारणम् इति तत्र क्रियापदस्य विभजनं कुर्मश्चेत् किं भवति कर्मपदस्य रूपम् इदानीं कर्मपदस्य रूपं द्वितीयविभक्तिरूपं भवति किन्तु तत्र अहं पुस्तकं पठितवान् अथवा पुस्तकं पठितवती, किन्तु पठनं कृतवान् अथवा कृतवती भवति चेत् तस्य पूर्वं किं भवति? पुस्तकम् इति पदस्य कीदृशरूपं भवति वाक्ये? अहं पुस्तकं पठितवान् इति वाक्यं, तत्र पठनं कृतवान् इति भवति, तस्य पूर्वं
पठनं कृतवान्,
पठनं कृतवान्, हा पुस्तकस्य पठनं कृतवान्, तत्र षष्ठी भवति, तत्र पुस्तकं पठनं कृतवान् न, तत्तु दोषायाः एव, किन्तु पुस्तकं पठितवान् अथवा पुस्तकं पठति अथवा पुस्तकस्य पठनं करोति इति, अतः तत्र दृष्टिं प्रसारितवान् इति, तत्र यदि वयं स्थापयितुम् इच्छामः प्रसारणं कृतवान्, तत्र किं भवति? दृष्टिः इति कीदृशपदम्? ह्रस्वैकारः पदं मतिवत्, हा
अतः
न षष्टि, हा प्रायशः तदपि अस्ति, तत्र रूपद्वयम् अस्ति खलु, तत्र षष्टि विभक्तिः मतिशब्दस्य, अस्तु अतः तत्र षष्टि दृष्टेः वा अथवा अन्यत् रूपमपि, तत्र षष्टिविभक्ति आवश्यकं, दृष्टेः सत्यजित् दृष्टेः प्रसारणं कृतवान् इति तादृशरूपं तत्र भवति. इदानीं तादृशप्रयत्नम् अत्र अन्यत्रापि कर्तुं तस्य प्रयत्नं कुर्मः, तत्र सुहृदां दर्शनाय इति, तत्र दर्शनम् इति अस्ति, दर्शनाय इति त्यजामः, दर्शनं कृतवान् इति अस्ति, तत्र सुहृदाम् इति स्थाने तत्र मित्रस्य दर्शनाय इति स्वीकुर्मः, मित्रस्य दर्शनं कृतवान्, सत्यजित् मित्रस्य दर्शनं कृतवान् इति, तस्य अन्यत् रूपं किं भवति? सत्यजित् मित्रस्य दर्शनं कृतवान् अथवा सत्यजित्, अत्र षष्ठी अस्ति किन्तु कर्मपदम् इच्छामः इदानीं, कृतवान् इति अस्ति, तत्र विभजनम् अस्ति, दर्शनं कृतवान्, दर्शनं कृतवान् इति मास्तु, वदतु भगिनि गीताञ्जलि भगिनि,
मित्रान् महोदय द्वितीय बहुवचन आयाति,
मित्र अस्तु, वदतु भगिनि,
मित्रान् दर्शनाय,
न दर्शनं कृतवान् इति अस्ति, दर्शनं कृतवान् इति तु इदानीं दर्शनं कृतवान् इति मास्तु, तत्र क्रियापदस्य विभजनम् अस्ति, प्रसारणं कृतवान् प्रसारितवान् इति, प्रसारणं कृतवान् इति मास्तु, प्रसारितवान् इति तादृशरूपम् इच्छामश्चेत् तत्र दर्शनं कृतवान् इति स्थाने किं भवति? दृष्टवान्, दर्शनं कृतवान्,
मित्रान् दृष्टवान्,
हा तत् समीचीनमस्ति, केवलं तत्र मित्रमिति नपुंसकलिङ्गे अस्ति इति कृत्वा मित्रं मित्रे मित्राणि, अतः मित्राणि,
ओ हा मित्राणि,
मित्राणि दृष्टवान्, सत्यजित् मित्राणि दृष्टवान् इति तादृशरूपं भवति, तत्र सुहृदां दर्शनं अथवा तत्र दर्शनं कर्तुम् अथवा कृतवान् इति स्थाने दृष्टवान् अथवा द्रष्टुं, मित्राणि द्रष्टुं, सुहृदं दर्शनार्थं, दर्शनं कर्तुम् इति तादृशरूपम् अत्र भवति, अस्तु, तत्र एतादृश किञ्चित् परिवर्तनं तत्र वाक्यस्य कथायाः वाक्यानि किञ्चित् परिवर्तनं कुर्मश्चेत् सौकर्यं भवति इति, तावदेव मनसि अपि तत्र कीदृश रूपमस्ति वाक्यस्य, किं किम् अत्र कर्तुं शक्नुमः इति तस्य अवगमनं वर्धते, तावदेव, अस्तु अग्रे शुभदा भगिनि, निमेषं यावत् इति,
निमेषं यावत् स्तब्धः अभवम्, अहं
निमेषं तत्रापि निमेषः निमेषं तत्र द्वितीयविभक्तिरूपं हा यावत् इति अस्ति इति कृत्वा
ॐ स्तब्धः अभवं ततः सरितः गभीरतां विपदः कठिनताम् आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान् यदा अहं सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान् तदा अहं सरितः गभीरता विपदः कठिनतां स्वस्य मम मनस्य दौर्बल्यम् इति सर्वे विस्मृतवान् सरिति कूर्दितवान् च
अहं सरिति कूर्दितवान् सर्वं विस्मृत्य अहं झटिति सरिति कूर्दितवान् समीचीनं भगिनि अग्रे
शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान् निमज्जन्तौ बालकौ दृष्ट्वा अहं सरिति कूर्दितवान् तदनन्तरं तरणं कृत्वा शीघ्रं तरणं कृत्वा एकं बालकं एकं निमज्जन्तं बालकं शिरसि मस्तके धारणं कृतवान्
हा न धारणम् इत्युक्ते भगिनि तत्र कुत्र स्थापितवान् इति किन्तु कुत्र ग्रहणम् अभवत् इति तत्र
मस्तके गृहीतवान्
हा तादृश मस्तके गृहीतवान् तत्र तत्र सप्तमी भवति तत्र देहस्य भागः कुत्र ग्रहणं भवति इति प्रश्ने तत्र कुत्र इति उत्तरं सप्तमी इति शिरसि ग्रहणम् अभवत् इति हा समीचीनं भगिनि अग्रेपि करोति वा
तथा अपरं बालकम् आत्मनः स्कन्धे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान् एकं मज्जन्तं बालकं मस्तके गृहीत्वा अपरं बालकं च मम स्कन्धे स्थापयित्वा समग्रां शक्तिं संहृत्य पूर्णां शक्तिं उपयुज्य अहं सरितः तीरं
समीचीनमेव सर्वं तत्र प्रतिपदस्य परिवर्तनम् इति तत् न आवश्यकं भगिनि तत् बहु क्लेशः भवति किन्तु किञ्चित् परिवर्तनं कुर्मश्चेत् तावत्पर्यन्तं समीचीनमेव अस्तु धन्यवादः भगिनि अस्तु अग्रे गीताञ्जलि भगिनि अग्रे पठति वा स्वशब्दैः वदति वा
यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत् यदा अहं द्वौ बालकौ द्वयोः बालकयोः सह द्वाभ्यां बालकाभ्यां सह तरामि तदा किमपि अहं न बोधितवान्
तत्र किमपि मया न बुद्धम् इति प्रायशः
किमपि मया
न बुद्धम् न बुद्धं
किमपि मया तु कर्मणि किन्तु हा यदा हा हा उत्तमं महोदय यदा यदा द्वौ बालकौ सह
बालकाभ्यां सह इति
यदा यदा
उक्तवती एव
यदा द्वाभ्यां बालकाभ्यां सह तरामि तदा तदा मया
किमपि न बुद्धम् किमपि न बुद्धम् अग्रे जागरितः उच्चैः
जागरितः अहम् उच्चैः आकृष्य सर्वान् आहूतवान् तदनन्तरम् अहम् अहं तीरे आगतवान् तत्र उच्चैः शब्दैः सर्वान् आहूतवान्
सर्वान् आहूतवान् अस्तु
आहूतवान्
अस्तु अग्रे
ये विपदि पतिताः भवन्ति ते केऽपि वा भवन्तु रक्षणीयाः एव
समीचीनम् तत्र रक्षणीयाः इति पदं किं भवति तत्र अस्मिन् वाक्ये विशेषणं वा रक्षणीयाः इति
बहुवचनरूपं कर्तृ एव महोदय
कर्तृपदमेव
विशेषणपदं कर्तृपदस्य विशेषणं रक्षणीया ते रक्षणीयाः एव
भवन्ति अथवा सन्ति एव
अग्रिमवाक्यं महोदय तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति इति मम विश्वासः यदि कोऽपि विपदः समये स्वस्य चिन्तनं कृतवन्तः तदनन्तरं
यदि यदि कोऽपि इति उक्तवती वा कोऽपि इति
न कोऽपि तु न तत्र इत्युक्ते तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः चिन्तयामः इत्युक्ते वयं चिन्तयामः यदि वयं कोऽपि न यदि वयं यदि वयं आपत्समये स्वस्य हितं विषये चिन्तयामः तर्हि
स्वस्य हितस्य विषये अथवा स्वस्य हितं चिन्तयामः
स्वस्य हितस्य विषये चिन्तयामः तर्हि अग्रे दुःखम् अनुभवामः
अग्रे दुःखं निश्चयेन
निश्चयेन अनुभवामः
इति मम विश्वासः अस्ति इति अहं अथवा अनुभवामः इति अहं निश्चयेन वदामि
निश्चयेन विचारं करोमि
समीचीनं
तदनन्तरं धीरः बालकः धन्यवादः इति
धन्यवादः इति अस्ति. अस्तु समीचीनम्. अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे पठति वा तत्र
अध्यक्षः. इदानीं सच्चिदितः सम्माननं करोति अस्य नगरस्य द्विषजां प्रमुखः नरेन्द्रमहोदयः. तत्कारणेन सच्चिदितः सम्माननं
भगिनि तत्र तत् कारणेन इति तेन कारणेन
तेन कारणेन सच्चजित् सम्मानं कुर्वन्
अथवा
करोति
एतेन कारणेन सत्यजित् यः अस्ति एषः बालकः सत्यजित् यः अस्ति तस्य तस्य सम्माननं कः करोति
द्विषजां प्रमुखः.
द्विषजाम् इति स्थाने अन्यत् किं वक्तुं शक्नुमः?
द्विषजां
न विषज् इत्युक्ते वैद्यः. अतः विषजाम् इति विभक्तिका वचनं किम्? न षष्ठी बहुवचनं विषजां प्रमुखः.
वैद्यः
रामः पदस्य षष्ठी बहुवचनं किम्?
रामाणां.
देवः
देवानां.
वैद्यः
वैद्यानां.
वैद्यानां प्रमुखः प्रमुखः नरेन्द्रमहोदय
सः
तस्य सम्माननं करोति. समीचीनं भगिनि. तत्र प्रमुखः अस्ति चेत् तस्य पूर्वं प्रायशः षष्ठी एव भवति इति. वानराणां प्रमुखः कः? इति अत्र तेषां प्रमुखः
नरेन्द्रमहोदयः
इति अस्ति. अतः प्रश्नः तत्र भवति तेषां प्रमुखः कः अथवा तेषां प्रमुखा का इति. तादृशरूपं भवति तत्र. समीचीनं भगिनि. अस्तु अत्र अग्रे अपि वक्तुम् इच्छति वा?
मुखात् एव सर्वं वयं श्रुतवन्तः.
तत्र लघुरूपेण इदानीं वदतु भगिनि, समयः नास्ति इति कृत्वा. तत्र
नरेन्द्रः
किं वदति?
एव सर्वं वयं श्रुतवन्तः.
सः एव सर्वम् उक्तवान्. सः एव सर्वम् उक्तवान्.
अतः कस्यापि जनस्य महत्त्वं वाचः माधुर्येण सम्पदः.
न वाचः माधुर्येण सम्पदः राशिना वा न, अपि तु कर्मणः प्रभावेण एव सिद्ध्यति. अतः कोऽपि पश्यामः कमपि पश्यामः तस्य पुरुषस्य वा अथवा तस्याः महिलायाः महत्त्वं तत्र वाचः माधुर्येण वा अथवा सम्पदः राशिना एषः धनी अस्ति अथवा एषा धनिनी अस्ति इति कृत्वा किमपि न भवति. कर्मणः एव सिद्ध्यति महत्त्वं. कर्मणः एव सिद्ध्यति. कर्मणः प्रभावेण एव सिद्ध्यति इति. अतः तत्र एतादृश बालः यः अस्ति तत्र विवेकिनः प्रतिभाशालिनः गुणिनः बालः तस्य एतस्य चरितम् आदर्शः भवतु इति. अस्तु समीचीनम्. अस्तु तर्हि इदानीं तत्र कथा समाप्ता इति मन्ये। तत्र बहु किमपि उपयोगं वयं कृतवन्तः कथायाः। अस्तु, तर्हि तत्र प्रश्नः अस्ति वा
महोदय? अस्य अभ्यासेन बहु सुलभं
कथा इदानीं सुलभा अस्ति वा भगिनि? समीचीनम्,
तथा एव कथा अपि अभ्यास एव अभ्यास अपि महोदय बहु
अस्तु भगिनि
लाभदायक अस्ति।
अस्तु अस्तु भगिनि, समीचीनम्। अस्तु अस्तु, तर्हि तत्र रघुवीरानन्दस्वामी तत्र अन्ते शान्तिमन्त्रम् इति वदति वा मन्त्रम्।
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। नमस्कारः, धन्यवादस्तु महोदय।
धन्यवादः, धन्यवादः
महोदय।
धन्यवादः
महोदय। नमस्ते महोदय। धन्यवादः।
धन्यवादः।